ॐ सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ओम्।
धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र पूर्वसवर्णसन्धिः इति। तस्मिन् विषये वयं किञ्चित् पठितवन्तः तत्र सामान्यरूपाणि ज्ञातवन्तः। इदानीं तत्र विशेषः पूर्वसवर्णसन्धेः एकः विशेषः नाम उत्थानम् अपि उत्थम्भनम् इति तत्र पदद्वयमस्ति। तत्र तस्मिन् मध्ये तत्र उत्थानं कथं रूपं भवति इति तत्र पठन्तः स्मः। तर्हि तत्र उत् स्थानम् इति तथा आरभ्य पठनीयं वा भगिनि? उषाधिपति भगिनि?
आं महोदय।
हा तर्हि भवती एव आरम्भं करोति वा?
उत् योगः योगस्थानं जलं जशोन्ते इत्यनेन पदान्ते जलः स्थाने जश् आदेशः भवति। जलां जशोन्ते इत्युक्ते पदस्य अन्ते जलः स्थाने जश् आदेशः भवति इति अस्ति। अतः तकारस्य स्थाने दकारः आदेशरूपेण आगच्छति उद्योगः। अपि च अधुना उद्योगः स्थानम् अनन्तरं खरीच उत् योगः स्थानं
पुनः स्थानमेव
स्थानम् इति दत्तं न महोदय। उद्योगः स्थानम् आदेः परस्य इत्यस्य साहाय्येन उदः स्थास्तम्भोः पूर्वस्य इत्यनेन पञ्चम्यन्तस्य उदः इत्यस्य अग्रिमशब्दस्य प्रथमवर्णस्य स्थाने पूर्वसवर्णादेशः। अनन्तरं स्थानम् इत्यस्य प्रथमं एकम् स्वीकृत्य करोमि महोदय।
अस्तु अस्तु भगिनि, तथैव करोतु।
खरिच इत्युक्ते जलः स्थाने चरादेशः भवति खरीपरे। अतः उत् योगः स्थानम् अनन्तरम् आदेः परस्य इत्यस्य साहाय्येन उदः स्थास्तम्भोः पूर्वस्य इत्यनेन पञ्चम्यन्तस्य उदः इत्यस्य अग्रिमशब्दस्य उदः स्थास्तम्भोः पूर्वस्य इत्युक्ते उदः प्रथमं पदम् अस्ति। स्थास्तम्भोः तत्र सकार प्रथमवर्णः अस्ति। इत्यस्य अग्रिमशब्दस्य प्रथमवर्णस्य स्थाने इत्युक्ते सकार यत्र अस्ति तत्र न महोदय। अग्रिम पञ्चम उदः इत्यस्य अग्रिमशब्दस्य प्रथमवर्णः सा अस्ति। तत् स्थाने पूर्वसवर्णादेशः भवति। अतः सकारस्य स्थाने पूर्वसवर्णादेशः भूत्वा तकार आगच्छति वा? पूर्वसवर्णादेशः नाम दकारस्य दन्त्यवर्गः तवर्गः तथ द सकारेण तुल्यवर्णः। ओके, तथ द ध न तत्र तुल्यवर्णः अस्ति।
तत्र अधोभागे तत्र तस्य विवरणं दत्तम् अस्ति भगिनि, इदानीं पठतु एकवारम्।
अस्तु महोदय। स्थानम् इत्यस्य सकारस्य पूर्वसवर्णादेशः नाम दकारस्य दन्त्यवर्गे आवरणे तवर्गे इति दत्तं। सकारेण तुल्यवर्णः। अनन्तरं स्थानेन्तरतमः इत्यनेन सकारस्य स्थाने थ थकारादेशः इत्युक्ते उत् योगः स्थानं झरो झरि सवर्णे इत्यनेन हल् उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे अतः विकल्पेन तकारलोपः उद्योगः स्थानम् अथवा स्थानं वर्णमेलने उत्थानम् एकरूपम् आगच्छति अथवा उत्थानम् इति अन्यत् एकं रूपम् आगच्छति. पठामि वा महोदय अनन्तरं
तत्र
तुल्यवर्णः
भगिनि तत्र भवती यत् पठितवती नाम तत्र पी डि एफ् पठितवती खलु?
आं महोदय.
हा तत्र उत् तत्र खरि च अनन्तरम् उत् योगः स्थानम् इति दत्तं खलु?
स्थानं
सकारस्य लोपः सकारः नास्ति खलु तत्र द्वितीयपदे?
न न महोदय.
कोऽपि जानाति वा किमर्थं तत्र यतोहि तत्र तत्र
स्थानमिति अस्ति चेदेव सकारस्य तुल्यवर्णः दकार आगच्छति न महोदय तत्र?
हा 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 अतः एव तत्र सकारः भवेत् खलु तर्हि
सकारः अस्ति महोदय करपत्रे अस्ति उत् योगः स्थानम्
तत्र प्रायशः भगिनि तत्र पी डि एफ् मध्ये तत्र मुद्रणदोषः अस्ति भगिनि
मम पार्श्वे प्रिण्ट् औट् अस्ति महोदय
तत्र तत्र स्थानम् इति स्थापयतु भगिनि तर्हि तर्हि च अनन्तरं स्थानम् इति भवेत् यतोहि तत्र केवलं सकारः नास्ति चेत् अग्रे यत् लिखितम् अस्ति तस्य
विवरणं न सम्यक्
हा सम्यक् न भवति हा
उद्योगस्थानम् अस्ति
चेत्
आदेशपरस्य इत्यस्य साहाय्येन उदः स्था स्तम्भोः पूर्वस्य इति सूत्रेण पञ्चम्यन्तस्य उदः तत्र किमर्थं पञ्चम्यन्तस्य उदः इति दत्तम् इत्यस्य पञ्चम्यन्तस्य उदः इत्युक्ते किं महोदय तत्र
नाम भगिनि तत्र सूत्रे उदः इति अस्ति खलु उदः इति सूत्रे अस्ति खलु उदः स्था स्तम्भोः पूर्वस्य इति अस्ति खलु उदः तत्र सूत्रे वयं जानीमः तत्र सूत्रे विभक्तेः अर्थः भिन्नः खलु
अस्तु महोदय
पञ्चम् इत्युक्ते परकार्यं
परकार्यम्
उदः अग्रे अतः एव तत्र उदः नाम उत् तस्य पञ्चमी उदः नाम
इत्यस्य अग्रिमशब्दस्य अग्रिमशब्दः अस्ति स्थास्तम्भोः तत्र प्रथमवर्णः अस्ति सकार तत्स्थाने पूर्वसवर्णादेशः भवति अनन्तरं स्थानमिति आगच्छति स्थानम् अधुना सम्यक् अस्ति महोदय स्थानम् इत्यस्य अनन्तरं स्थानम् इत्यस्य सकारस्य सकारस्य पूर्वसवर्णादेशः नाम दकारस्य दन्त्यवर्गे तवर्गे ओके सकारेण तुल्यवर्णः अस्ति दक तवर्गे अस्ति किल थ थ द ध द तुल्यवर्णः अस्ति सकारेण सह अतः स्थानेन्तरतमः इत्यनेन सकारस्य स्थाने अपि अधुना थकारादेशः भवति
नाम तत्र दकारस्य स्थाने सकारः एव तत्र तुल्यवर्णः इति सकारेण तुल्यवर्णः थकारः अतः उत्थानम् उत् योगः स्थानम् इति अपि
योगः स्थानम् स्थानम् झरो झरि सवर्णे इत्यनेन हल् उत्तरस्य झरः विकल्पेन विकल्पेन लोपः विकल्पेन लोपः भवति तकार न तकार अर्धतकार इति वदामि वा महोदय तत्र प्रथमतकार इति वदनीयं वा कथं वदनीयं
तत्र केवलं व्यञ्जनम् अस्ति खलु तत्र प्रथमतकारः व्यञ्जनं तदनन्तरं व्यञ्जनं योगः स्वरः खलु योग इत् योगः आकारः
प्रथमं व्यञ्जनं विकल्पेन लोपः भवति
हा तस्य लोपः भवति हा समीचीनं भगिनि
अतः विकल्पेन तकारलोपः भूत्वा उत्थानम् इति एकं रूपम् अनन्तरम् उत्थानम् उत्थानम् इति अन्यत् एकम्
अन्यत् रूपम् अस्ति समीचीनं भगिनि धन्यवादः तत्र प्रायशः तत्र स्पष्टता नास्ति इति मन्ये यतोहि मम मनसि अपि स्पष्टता नास्ति तत्र उषास्वामिना तत्र भगिनी तत्र भवती पुनः एकवारं तस्य एतस्य परिच्छेदस्य विवरणं किञ्चित् करोति वा भगिनि
महोदय प्रयत्नं करोमि उत्योगः स्थानम् इति कृते जलां जशोन्ते इत्यनेन पदेन जलः स्थाने जश् आदेशः सो तकारस्य स्थाने दकार आदेशः उद् योगः स्थानं यतोहि जलाम् इत्यस्य जलाम् अस्ति तकारः तस्य स्थाने जश् भवति जश् भवति इत्यनेन तृतीयवर्णः दकारः भवति उद् योगः स्थानम् इति अस्ति उद् योगः स्थानं खरिच इत्यनेन उत् योगः स्थानम् अपि भवति आदेहे परस्य इत्यस्य साहाय्येन उदः अपि च उदः स्तम्भोः पूर्वस्य इत्यनेन पञ्चम्यस्य उदः इत्यस्य अग्रिमशब्दस्य प्रथमवर्णस्य स्थाने पूर्वसवर्ण आदेशः अस्माकं मुख्यसूत्रम् उदः स्तम्भोः पूर्वस्य उदः स्तम्भोः पूर्वस्य स्था अपि च स्तम्भोः इति उदः परः अस्ति चेत् उदः उद् अपि परशब्दः स्था अथवा स्तम्भ इति अस्ति चेत् तस्य स्था अथवा स्तम्भ इत्यस्य प्रथमवर्णस्य प्रथमवर्णम् इति जायते यतोहि आदेः परस्य जनरलि प्रायेण विनो अलोन्तस्य द्वयोः पदयोः मध्ये अन्तिम प्रथमपदस्य अन्तिम वर्णः अथवा यत् पदं दट्स् टाक्ट् अबौट् तस्य अन्तिमवर्णः इत्येव वयं जनरलि अलोन्तस्य इत्यस्मात् अलोन्तस्य इति सूत्रेण
तत्र अलोन्तस्य इत्यस्य
बाधकसूत्रं भवति आदेः परस्य यत्र पञ्चमी विभक्तेन विधीयते तत्र उदः अनन्तरं स्था कार्यम् अत्र आदेशः भवति पूर्वस्य उदः स्थास्तम्भोः पूर्वस्य इत्यनेन उदः अनन्तरं यत् शब्दः अस्ति तस्य आदिमवर्णः तस्य प्रथमवर्णः स्थाने दट् इस् दि आदेः परस्य इत्यनेन प्रथमवर्णस्य स्थाने आदेशः विधीयते इति आदेशः विधीयते अत्र उदः स्थास्तम्भोः इत्यस्य स्था अथवा स्तम्भ पूर्वं यत् वर्णः अस्ति अत्र दकारः अतकारः दकारस्य सवर्ण आदेशः भवति स्था अथवा स्तम्भोः प्रथमवर्णस्य कृते सो आदेशः यत्र यत्र विधीयते तत्र ईदर् अलोन्तस्य अथवा आदेः परस्य यत्र कार्यं जनरली अन्तिम अचुडेस्य अन्त्यवर्णस्य कृते आयाति महोदय जनरलि वि सी देट् बट् अत्र उदः स्थास्तम्भोः लैक् उदः स्थास्तम्भोः अत्र अत्र उद् 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 इति शब्दस्य परः स्था अथवा स्तम्भोः अस्ति चेत् देन् सकारः सकारः स्थाने सवर्ण आदेशः पूर्ववर्णस्य सवर्ण आदेशः भवति इति सूत्रं वदति.
अस्तु,
उद् योगः उद् उद् योगः स्थानम् इति कृते स्थानं सकारस्य स्थाने दकारस्य सवर्ण आदेशः भवति. दकारस्य सवर्ण आदेशः तकारस्य सवर्ण आदेशः इति अकार अथवा दकार सकारस्य
सकारेण तुल्य
सकार तुल्यवर्णः सकारः एव
तुल्यवर्णः कस्मिन् वर्गे इत्युक्ते तत्र
तदवर्ग तदवर्गे सकारस्य तुल्यवर्णः महाप्राणतकारः एव. सकारस्य स्थाने महाप्राणतकारः आयाति यतोहि जनरली सवर्णा इति कृते तुल्यास्य प्रयत्नं सवर्णम् इत्यनेन जनरलि वि हेव् आभ्यन्तरप्रयत्न अथवा आस्य दट द स्थान दट आस्यं
स्थानं तदनन्तरम्
अथवा अथवा आभ्यन्तरप्रयत्न अत्र आभ्यन्तरप्रयत्नम् अपि च आस्य दत् स्थान अपि डजन् वर्क् yeah it's so the what do we call that the other one bahya prayatna eva will work here mahoday because sakara adava takara sakara adava agre asti
agre tasya vivaranam asti tatra footnote iti star iti asti kala tarhi tatra tarhi idani tatra sakarena tulyah varnah
sakara tulya varnah sakarah asti उत् देन् उत् योगः स्थानम् इति चेत् जरोजरि सवर्णे इति सूत्रम् अस्ति. जरोजरि सवर्णे इति कृते झर् झर् पूर्वं हलः भवेत् अपि च झर् पूर्णं झर् परः अपि सवर्णझरि अस्ति चेत् सो झर् पूर्वं हल् भवेत् अण्ड् जर् परः सवर्ण सवर्णजर् अस्ति चेत् जरोजरि सवर्णे इति सूत्रम् अस्ति. सो तकारः उत् इत्यस्य तकारः अनन्तरं महाप्राणतकारः सो तकारः इति हल् अस्ति. महाप्राणतकार अनन्तरं स्थान इति कृते सकारः अनन्तरं सवर्णजर् अस्ति. सवर्णजर् अस्ति इत्यनेन सकारः लोपः भवति लोपः भवति इत्यनेन उत्थानम् इति भवति. सो वर्णमेलनं उत्थानम् एव भवति. जरोजरि सवर्णे अपि ऐ थिङ्क् इट्स् संहितायां हलः जरः लोपः अन्यतरस्याम् ओ अन्यतरस्याम् इति अनुवृत्तिसहितम् आयाति इत्यनेन अन्यतरस्याम् इत्यनेन उत् स्थानम् अपि अस्ति उत्थानम् अपि अस्ति.
समीचीनं भगिनी, धन्यवादः. अस्तु, इदानीं प्रायशः तत्र स्पष्टता अभवत् इति मन्ये. धन्यवादः भगिनी. इदानीं तर्हि तत्र अग्रे शुभो भगिनी, तत्र इदानीं तत्र सकारे तुल्यः इति
विषयः. आं महोदय, तत्र केवलम् एकं वक्तुम् इच्छामि, तत्र उत् इत्यनेन न भवति. आदेः परस्य इति सूत्रं तत्र उदः स्थास्तम्भोः पूर्वस्य उदः इति पञ्चम्याम् अस्ति निमित्तम्. उदः पञ्च यदा पञ्चम्यां निमित्तं सूचितम् अस्ति चेत् अपि च कार्यं परं भवति तदा परशब्दस्य आदिमवर्णस्य एव स्थाने आदेशः भवति. इति तत्र न चिन्ता नास्ति भगिनि, केवलं सम्यक् उक्तवती, बहु सम्यक् उक्तवती. तदेव तावत् तावदेव तत्र उदः इति अस्ति इति कृत्वा, पञ्चम्यात् अस्ति इति कृत्वा, परवर्णस्य आदौ एव, परशब्दस्य आदौ आदिमवर्णे एव आदेशः भवति. अतः तत्र किम् उत्योगस्थानम् इत्यत्र उदः इति अस्ति इति कृत्वा आदेः परस्य इत्यनेन, उदः स्थास्तम्भोः पूर्वस्य इत्यनेन, तत्र उदः स्थास्तम्भोः पूर्वस्य इत्यनेन इत्युक्ते तत्र पञ्चम अन्तस्य उदः इत्यस्य तत्र निमित्तं पञ्चमी विभक्त्याः निमित्तम् इति कृत्वा अग्रिमशब्दस्य प्रथमवर्णस्य स्थाने पूर्वसवर्णादेशः भवति. तत्र पूर्ववर्णः अस्ति उत्तयोगः स्थानं, तकारः पूर्ववर्णः, तस्य सवर्णः. इदानीं तत्र सकारस्य तवर्णः तवर्गीय व्यञ्जनेषु भवेत् अन्यतमः तवर्गीय अन्यतमः वर्णः सकारस्य सवर्णः भवेत्, यतोहि सकारस्य अवर्गीयव्यञ्जनम् अस्ति. अतः तत्र पुनः तत्र उच्चारणस्थानम्, आभ्यन्तरप्रयत्नः, बाह्यप्रयत्नः इति सर्वं भवती उक्तवती. अतः तत्र सकारः किम् अस्ति, खर्वर्णः, महाप्राणः अस्ति, विवार
भगिनी भगिनी एषः विषयः तत्र अग्रिमे परिच्छेदे अस्ति इति मन्ये.
अस्तु,
नाम सकारस्य तवर्गे सकारेण तुल्यः वर्णः कः इति प्रश्नस्य उत्तरम्.
अस्तु, तर्हि तत्र एव पठामि. सर्वेषां दन्त्यवर्णानां तथ दध न ल स इति येषाम् इत्युक्ते दन्त्यवर्णानाम् इत्युक्ते तवर्गीयव्यञ्जनानि, अपि च लकारः सकारः अपि दन्त्यवर्णाः, मुखस्य उच्चारणस्थानं समानमेव एतेषां सर्वेषां तवर्गीयवर्णानाम्, अपि च ल अपि स तेषाम् उच्चारणस्थानं मुखे समानमेव. अतः ते सर्वे दन्त्यवर्णाः इत्युक्ते स्थानं दन्ता इति तत्र कण्ठ इत्यादयः सन्ति तथा दन्तस्थानम् इति भवति तत्र, तादृशं दन्ताः इति वदामः. अतः अनेन तेषु सकारस्य स्थाने कः आदेशः भवेत् इति निर्णेतुं न शक्यते, तदा आभ्यन्तरप्रयत्नेन अपि न शक्यते, यतोहि सर्वेषां वर्गीयव्यञ्जनानाम् अत्र त थ द ध न इत्येषाम् आभ्यन्तरप्रयत्नः स्पृष्टः, नाम एते वर्णाः स्पर्शाः. इत्युक्ते तत्र तवर्गीयव्यञ्जनानि स्पर्शाः इति सन्ति तत्र चार्ट् मध्ये.
हा हा, चार्ट् अस्ति अधोभागे, तत्र स्पर्शाः इति स्पृष्टाः इति सर्वे तत्र वर्गीयव्यञ्जनानि तत्र स्पृष्टाः इति एव तेषु एव अन्तर्भूतानि भवन्ति खलु, तत्र खवर्ग चवर्ग टवर्ग तवर्ग पवर्ग सर्वं.
हा, तत्र यथा भवान् उक्तवान् सर्वाणि वर्गीयव्यञ्जनानि भवन्ति, अतः तत्र तुल्यतमवर्णः न प्राप्तः. तदनन्तरम् आभ्यन्तरप्रयत्नः स्पृष्टः अस्तु, आभ्यन्तरप्रयत्नः स्पृष्टः नाम एते सर्वे स्पर्शाः, तदा लकारस्य आभ्यन्तरप्रयत्नः ईषत् स्पृष्टः नाम अयम् अन्तस्थवर्णः. लकारस्य आभ्यन्तरप्रयत्नः ईषत् स्पृष्टः इति भवति, इत्युक्ते अन्तस्थ वर्णः इति भवति. सकारस्य तु ईषद् विवृतः नाम अयं वर्णः ऊष्माणः, आभ्यन्तरप्रयत्नेन तथ दध न ल इत्येभ्यः सकारः भिन्नः अतः अनेन अपि निर्णयः न सम्भवति किन्तु बाह्यप्रयत्न इदानीम् उच्चारणस्थानेन न अभवत् आभ्यन्तरप्रयत्नेन सुवर्णः न प्राप्तम् अतः बाह्यप्रयत्नः अन्तिम प्रयत्नः भवति बाह्यप्रयत्ने समाधानं प्राप्यते तकार थकारयोः बाह्यप्रयत्नः विवारः श्वासः अघोषः द्वयोः मध्ये थकारः महाप्राणः सकारः अपि तथैव विवारः श्वासः अघोषः महाप्राणः अतः सकारस्य स्थाने थकारादेशो भवति तेन एवमेव उद्योगः स्तम्भनम् इत्यस्य कृते अपि रूपम् उत्थम्बनम् उत्थम्बनम् इति भवति तत्र उद्योगः स्तम्भनम् इति प्रथमं भवति तदनन्तरं तत्र सकारस्य स्थाने इदानीं यत्र यथा पूर्वस्मिन् अभवत् उत्स्थानम् इति तत्र उत्स्तम्भनं तदनन्तरम् आदेः परस्य अपि च उदहस्तास्तम्भोः पूर्वस्य इत्यनेन स्थानम् इत्यस्य सकारस्य पूर्वसवर्णादेशः आसीत् इदानीं तत्र स्तम्भनम् इत्यस्य पूर्वसवर्णादेशः भवति थकारः उद्योगः स्तम्भनम् इति भवति तदनन्तरं स्थानेन्तरतमः इत्यनेन न थकारादेशः अभवत् क्षम्यताम् उद्योगः स्तम्भनं झरोझरिसवर्णे इत्यनेन हल् उत्तरस्य झरः विकल्पेन लोपः सवर्णझरिपरे अतः विकल्पेन थकारलोपः उद्योगः स्तम्भनम् इति एकं रूपं विकल्पेन इति इत्यनेन उत्थम्बनम् इति अपि अन्यत् रूपं भवति तत्र सकारस्य लोपः भवति चेत् उत्थम्बनं थकारस्य आदेशः भवति चेत् उत्थम्बनम् इति भवति
इति भवति समीचीनं भगिनि धन्यवादः अस्तु तर्हि इदानीं प्रायः सर्वं सम्यक् अस्ति इति मन्ये नाम तत्र सोपानानि सन्ति तत्र उत्थानम् इति पदस्य निर्माणे सोपानानि सम्यक् रीत्या अत्र दत्तानि सन्ति इति मन्ये अपि सकारस्य तुल्यवर्णः तत्र महाप्राणतकारः तवर्गे इति अपि तस्य विवरणमपि दत्तम् अस्ति अस्तु समीचीनं तर्हि तत्र पूर्वसवर्णसन्धेः विशेषपदद्वयं नाम उत्थानम् उत्थम्भनम् इति तस्य विवरणं नाम तत्र गीताप्रवेशपुस्तके चत्वारिंशत्तमे पुटे नाम तत्र विशेषः इति दत्तं तस्य विवरणं करपत्रे इदानीमेव पठितम् इदानीम् अग्रे सरामः तत्र सन्धिं कुरुत इति अस्ति तत्र अभ्यासः गीताप्रवेशे तम् अभ्यासं कृत्वा तदनन्तरं तत्र चत्वसन्धिः इति अग्रे विषयः भवति तर्हि तत्र
महोदय
इदानीं
अद्य अहं उत्थापयति इति दृष्टवती यद्यपि कृष्णः युद्धनिपुणः तथापि कुरुक्षेत्रे शस्त्रं न उत्थापयति इति अहं दृष्टवती उदहस्तास्तम्भोः पूर्वस्य इत्यनेन उत् स्था देन् द स्था तकारा ड्राप्स् एन् उत्थापयति निच् प्रयोगः अपि
समीचीनं नाम केवलं तत्र उत् स्थानमिति धातुः तत्र स्था धातुः अस्ति चेत् समीचीनं तस्य अनन्तरम् अन्यप्रत्ययः अस्ति चेत् अपि एतदेव रूपं भवति इति खलु भगिनि नाम निच् अस्ति चेत् अपि एतद् रूपमेव भवति उत्थापनम् इत्येव अस्तु भगिनि समीचीनं धन्यवादः सुन्दरम् अस्तु अस्तु तर्हि नरेश महोदय इदानीं तत्र अभ्यासः चत्वारिंशत्तमे पुटे तृतीय अभ्यासः सन्धिं कुरुत इति अस्ति तत्र निवेदत भगिनि नमस्कारः
तृतीय अत्र अस्तम्भे
वाघीनः इति अस्ति खलु.
नमो नमः, क्षम्यतां विलम्बेन गच्छामि.
अचिन्तमस्तु भगिनि, तत्र गीताप्रवेशे तत्र पूर्वसवर्णसन्धिः इति पुटे तत्र महोदय नूतनमुद्रणे प्रायश तत्र 41-39 इति अस्ति वा? प्रायश तदेव अस्ति. आं महोदय,
अधिकम् अत्र खलु, तत्र
समानमस्ति. हा हा, समानमस्ति महोदय.
चत्वारिंशत्
40
ओ अस्तु, 40 सन्धि कुरुत.
तदेव
सन्धि कुरुत.
अधिकं
वाग्,
तदेव तदेव सत्यं, धन्यवादः.
वाग्योगहीनः, वाग्योगहीनः, वाग्हीनः, वाग्हीनः.
महोदय तत्र पश्यतु, तत्र उपरि प्रथम उदाहरणं पठतु महोदय. उपरि एतानि उदाहरणानि परिशीलयत इति.
एतानि उदाहरणानि परिशीलयत. धर्म्याद् योग हि, तत्र धर्म्याद्धि, धर्म्यादहि, धर्म्याद्धि अस्तु. अत्रापि वाग्योगहीनः, वाग्हीनः, वाग्हीनः.
महोदय तत्र तत्र हकारस्थाने तत्र किं किम् आगच्छति?
तत्र चतुर्थवर्णः आगच्छति, वाग्हीनः.
उत्तमं महोदय, अस्तु समीचीनं.
द्वितीय वाग्हीनः, वाग्हीनः, वाग्हीनः.
अस्तु महोदय, तत्र वाग्हीनः इति रूपं तथैव तिष्ठति अथवा वाग्हीनः इति. समीचीनं महोदय, अस्तु. अग्रे अपि करोतु तत्र.
अग्रे जगद्योगहितम्. अत्रापि प्रथम हकारस्य स्थाने धकारः आगच्छति, जगद्धितम्. द्वितीय जगद्धितम्
इति भवति. समीचीनं महोदय, धन्यवादः. अग्रे निवेदिता भगिनि.
अप् अधिकः रासः, तत्र हकारस्य स्थाने पवर्गस्य भ वर्ण आगच्छति खलु, अभ्रासः.
हा सत्यं भगिनि.
विकल्पेन अभासः इति द्वितीयरूपम् अपि आगच्छति.
सत्यं,
हकार तत्रैव तिष्ठति, रास रकार तत्रैव तिष्ठति, अतः अभ्रासः. गच्छत् गच्छत् अधिक हास्यम्. अत्र हकारस्य स्थाने धकारः आगच्छति, अतः गच्छत् हास्यं, गच्छत् हास्यं,
हास्यम् इति भवति. समीचीनं भगिनि,
गच्छत् हास्यं, वैकल्पिकविकल्पेन गच्छत् हास्यम् इति द्वितीयरूपं.
समीचीनं भगिनि, धन्यवादः. अग्रे तत्र उषा, धन्यवादः भगिनि. उषा दिवते भगिनि अग्रे.
आं महोदय, बिड् योगः हसति, विकल्पेन कारस्य स्थाने तत्तत् वर्गीय चतुर्थव्यञ्जनं विकल्पेन आगच्छति, अतः विड् विड् हसति
इति
विड्ढसति इति न विड्ढसति तत्र नास्ति
विड्ढसति महोदय
हा विड्ढसति समीचीनं विड्ढसति
विकल्पेन अनन्तरं विड्ढसति विड् हसति एकं रूपम्
समीचीनं भगिनि अस्तु अग्रिमं
राड् सम्राड् योगः हरिद्राम् सम्राड् योगः हरिद्राम् हकारस्य स्थाने डकारस्य वर्गीयव्यञ्जने चतुर्थव्यञ्जनं ड भ साम्राड् ढरिद्रम् ड ढ साम्राड् ढरि ढरिद्रम् इति विकल्पेन एकं रूपम् आगच्छति अनन्तरं साम्राड् हरितम् इति एकं रूपम् आगच्छति हरिद्रम्
हरिद्राम्
हरिद्राम् महोदय हरिद्राम् इति
आगच्छति समीचीनं भगिनि धन्यवादः अस्तु अग्रे उषास्वामिनोत्तरं भगिनि
महोदय भवद् योगः हितरक्षकः भवद् योग धितरक्षकः इति भवति भवत् धितरक्षकः अथवा भवत् हितरक्षकः अपि प्रथम दकारः झै अनन्तरं हकारः सो हकारस्य स्थाने झयोः अन्यतरस्याम् इत्यनेन हकारस्य पूर्ववर्णस्य चतुर्थवर्णः सो भवत् धितरक्षकः अथवा भवत् हितरक्षकः अनन्तरं सुहृद् योगः हृष्टः सुहृद् दृष्टः दृष्टः अथवा सुहृद् हृष्टः अपि
इति भवति समीचीनं भगिनि उत्तमम् अस्तु धन्यवादः
धन्यवादः
तर्हि इदानीम् अग्रे पुनः तत्र करपत्रे तत्र चत्वसन्धिः इति अस्ति किन्तु एकवारं प्रायशः तत्र शोभा भगिनी तत्र चत्वसन्धेः तत्र एकम् उदाहरणम् अत्र पठित्वा तदनन्तरं तत्र सूत्रस्य पठनं कुर्मः खलु
अस्तु महोदय
यतोहि तत्र केवलं सूत्रं पठामश्चेत् तत्र उदाहरणमपि मनसि अस्ति चेत् प्रायः सौकर्यं भवति
इत्युक्ते तत्र तत् योगः शिवः ततः वा
न तत्र पुस्तके
पुस्तके वा
हा पुस्तके केवलम् एकम् उदाहरणं तत्र अग्रे एव अस्ति खलु तत्र यत् यत् शोकं
चत्वसन्धिः इदानीं हा यच् योगः शोकं तत्र यकार चकार शकारयोः योगे अथवा यच् इत्यस्य यकार चकार शकारः योगः ओकम् इति तत्र शकार ओकारयोः मध्ये इदानीं सन्धिः तत्र इदानीं चकारात् परं स्थितं शकारः तत्र छ आदेशः भवति यच् शोकम् इति एकं रूपं भवति अथवा यच् विकल्पेन अतः यच् शोकम् इति अन्यत् रूपं भवति तत्र तदेव तत्र सन्धिकार्यं यच् योगः शोकम् इत्यत्र
उदाहरणं मनसि भवेत् इदानीम् अस्तु इदानीं सूत्रं पठामः
चत्वसन्धिः षष्ठोटि इति सूत्रं तत्र अष्टाध्याये चतुर्थपादे त्रिषट् कथं वदामः महोदय त्रिषष्टितमं सूत्रं पदान्तस्य झयः उत्तरस्य षकारस्य अटि परे छकारादेशो भवति अन्यतरस्यां शः षष्ठ्यन्तं चः प्रथमान्तम् अटि सप्तम्यन्तं त्रिपदमिदं सूत्रं झयो होन्यतरस्याम् इत्यस्मात् झयः च अन्यतरस्याम् च इत्यनयोः अनुवृत्तिः वा पदान्तस्य इत्यस्मात् पदान्तस्य इत्यस्य अनुवृत्तिः विभक्तिपरिणामेन विभक्तिपरिणामेन पदान्तात् इति तयोर्वावची संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अट् प्रत्याहारे सर्वे स्वराः ह य व र च अन्तर्भूताः अनुवृत्तिसहितसूत्रं पदान्तात् झयः शः छः अटि संहितायाम् अन्यतरस्याम् षष्ठ्योटि इति सूत्रं वदति पदस्य अन्ते झै पदान्तस्य झयः उत्तरस्य शकारः पदान्ते झै वर्णः भवेत् यथा तत्र यच् योगः शोकम् इत्यत्र चकारः झै वर्णः तस्मात् उत्तरस्य शकारस्य उत्तरं शकारः भवेत् शकारस्य अटि परे चकारादेशो भवति शकारस्य तत्र शोकम् इति अस्ति शकारात् शकारात् परम् ओकारः अट् प्रत्याहारसुवर्णः इत्युक्ते सर्वे स्वराः अच् इति तदनन्तरं हयवरट् पर्यन्तं सः वर्णः अस्ति चेत् अटिपरे शकारस्य छकारादेशो भवति तत्तु विकल्पेन अन्यतरस्यां तत्र शः इति षष्ट्यन्तं छः इति प्रथमान्तं षष्ट्यन्तं स्थाने छः इति प्रथमान्तम् आदेशः अटि इति सप्तम्यन्तं भवति सप्तमी सप्तम्येन उक्तं सूचितं निमित्तम् अतः पूर्वकार्यं परनिमित्तं त्रिपदमिदं सूत्रं भवति तत्र झयो हून्यतरस्याम् इत्यस्मात् झयः अपि च अन्यतरस्याम् इति अनुवृत्तिः स्वीकृतौ वा पदान्तस्य इत्यनेन पदान्तस्य इत्यस्य अनुवृत्तिः अपि च पदान्तस्य इति नीत्वा तस्य विभक्तिपरिणामं कृत्वा पदान्तात् इति स्वीकृतम् अपि च तयोर्वावची संहिताम् इति सूत्रात् संहितायाम् इत्यस्य अधिकारः भवति अस्मिन् सूत्रे अट् प्रत्याहारे तत्र सर्वे स्वराः अपि च हयवर च अन्तर्भूताः अनुवृत्तिसहितसूत्रे पदान्तस्य इत्यस्य पदान्तात् भूत्वा पदान्तात् झयः झैवर्णस्य पदस्य अन्ते स्थितस्य झैवर्णस्य शः छः शः तत्र षष्टिविभक्तिः छः इति आगमः आदेशः क्षम्यताम् आदेशः शः इति षष्टि छः इति प्रथमविभक्तिः अटि इति सप्तमी अट् वर्णे परे संहितायाम् अन्यतरस्यां छकारादेश तत्र भवति इति तत्र अग्रे पठनीयं वा महोदय
समीचीनमेव अस्ति भगिनि समीचीनं तत्र मम मनसि प्राय मम मनसि एतत् न जानामि इति कृत्वा पृच्छामि तत्र शः षष्ट्यन्तम् इति उक्तं खलु भगिनि तत्र चः प्रथमान्तम् इति उक्तं तत्र द्वितीयवाक्ये नाम षष्ठोटि इति सूत्रे शः षष्ट्यन्तम् इति उक्तं खलु तत्र प्रथमान्तरूपं किं भवेत् शः इति षष्ट्यन्तम् अस्ति चेत् शः इति एव वा प्रथमान्तमपि अथवा
प्रायशः शकारः हलन्तशकारस्य शः इति भवति इति मन्ये महोदय अतः श इति किं भवति तत्र इक् अस्ति किं हलन्तपदं
तर्हि केवलं श इति भवति विसर्ग विसर्गः नास्ति इति प्रायशः खलु तर्हि
प्राप्तिकं प्रथमा प्रथमाविभक्ति अस्ति
अपि अस्तु अस्तु तर्हि तत्र विसर्गः तर्हि
अस्ति इति अस् इति षष्ट्यन्तप्रत्ययः सो अस् इति भवति
विसर्गः तु केवलं षष्ठिविभक्ति अस्ति चेत् विसर्गः आगच्छति शः
किन्तु महोदय तत्र चः इति प्रथमान्तम् इति उक्तं खलु तर्हि
प्रथमान्ते अपि
प्रथमं श श स्थाने च आगच्छति
सत्यं महोदय तत्र सूत्रस्य अर्थः समीचीनः महोदय किन्तु
इति गिवन् महोदय सो छः शः शश्च चो अटि सो पदान्तस्य जयः उत्तरस्य चकारस्य अटि परे चकार आदेशः सो चः चः इति प्रथमान्तम्
इति भवेत् तर्हि रूपं दृष्ट्वा न जानीमः तत्र सूत्रं दृष्ट्वा प्रथमान्तम् इति जानीमः वा इति मम प्रश्नः चः इति प्रथमान्तमस्ति इति
तत्र महोदय शः चः इति अनुवृत्तिसहितसूत्रं पश्यामः चेदेव किञ्चित् वक्तुं शक्नुमः इति मन्ये तत्र सूत्रमेव पश्यामः चेत् प्रायः न जानीमः अतः तत्र झयः शः इति तत्र विशेष्य विशेषणं भवति पदान्तात् झयः क्षम्यतां तस्य न पदान्तात् झय भवेत् पदस्य अन्ते स्थितस्य झयः शः तत्र भवति एव शः तत्र झय् प्रत्याहारस्य वर्णः भवेत् अतः झयः शः इति तत्र एव वक्तुं शक्नु इदानीं तत्र झयः शः इति षष्ठी भवति इति ज्ञास्यामः इति कृत्वा तदनन्तरम् आगमः वा आदेशः वा लोपः वा किमपि भवति तस्य स्थाने झयः शः इति स्थानीय भवति इदानीं तेन वक्तुं शक्नुमः तस्मात् परं आदेशः वा आगमः वा भवेत्
धन्यवादः
तत्तु कुत्र कदा इत्युक्ते पुनः तत्र अटि इति दत्तम्
अटि
शकारात् परम् अट् वर्ण अट् प्रत्याहारस्थवर्णः भवेत्
भवेत् उत्तमं धन्यवादः अस्तु
धन्यवादः
तत्र अत्र सन्धिकार्ये तत्र अनेके विचाराः सन्ति तत्र सर्वे तत्र सर्वमहम् अवगच्छामि इति नास्ति अतः एव अहमपि पृच्छामि अस्तु धन्यवादः भगिनि अस्तु इदानीम् अग्रे तर्हि तत्र निवेदिता भगिनी अग्रे पठति वा ध्येयं यत् इति अस्ति वा
अहं पठामि
ध्येयं यत् इति
ध्येयं यत् तत्र अस्ति खलु
सत्यं भगिनि
ध्येयं यत् षट्षष्टोटि त्रिपादीसूत्रम् अतः प्रथमं जष्ट्वं श्चुत्वं चर्त्वम् इत्यादिकं करणीयम्
अग्रे अग्रे अपि पठतु
ध्येयः ध्येयं यत् त्रिपादीर्थं शः षष्ट्यन्तं चः प्रथमान्तं तथा अटि सप्तम्यन्तम् अतः त्रिपदिदं सूत्रमस्ति अतः प्रथमं जष्ट्वं करणीयं जष्ट्वं नाम
जष्ट्वसन्धिः
तथा
तत्र
वर्गीयव्यञ्जनेभ्यः परतः स्वरः सन्ति खलु तत्र व्यञ्जनस्य स्थाने तद्वर्गीय तृतीयव्यञ्जनं
निवेदिता भगिनी तत्र एकवारं सर्वं पठित्वा तदनन्तरम् उदाहरणम् अग्रे दत्तमस्ति तदा अस्य विवरणं भवति तर्हि एकवारं वाक्यद्वयं यत् अस्ति एकवारं
ततः अधिकं शिवः जलां जशन्ते अष्टमाध्यायस्य द्वितीयपादस्य नवत्रिंशत् सूत्रमस्ति इत्यनेन पदान्ते झलः स्थाने जशादेशः तकारस्य स्थाने दकारः आगच्छति तत् अधिकं शिवः स्तोः शुनाशुः अष्टमाध्यायस्य चतुर्थपादस्य चत्वारिंशत् सूत्रमस्ति इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वं दकारस्य स्थाने च वर्गस्य तृतीयवर्णम् आगच्छति तच् अधिकं शिवः खरी च 8455 इत्यनेन झलः स्थाने चरादेशः भवति अतः जकारस्य स्थाने पुनः चकारः जकारस्य स्थाने चकारः आगच्छति आगच्छति अधिकं शिवः षट्छोटीः 8463 इत्यनेन पदान्तस्य जयः उत्तरस्य शकारस्य अटिपरे चकारादेशः अन्यतरस्याम् अतः शकारस्य स्थाने चकारः आगच्छति तच् शिवः विकल्पेन तथैव तिष्ठति तच् शिवः
हा इति अस्ति समीचीनं भगिनि हा तर्हि इदानीं यत् ज्ञेयं ध्येयं यत् इति वाक्यम् इदानीं पठतु तत्र यत् वाक्यं भवति
छोटिः छोटिः त्रिपादीसूत्रम् अतः प्रथमं जष्ट्वं शुत्वं चर्त्वम् इत्यादिकं करणीयम्
अग्रे सामान्यतया
प्रथमं जलां जश्वन्ति सूत्रमस्ति तत्र जष्ट्वं भवति अनन्तरं ततः अधिकशिव शिवः तत् अधिकशिवः भवति तदा तत् अधिकशिवः भवति खलु अनन्तरं श्युत्वं स्तोः शुनाशुः सूत्रेण दकारस्य स्थाने जकारः आगच्छति अनन्तरं चर्त्वं खरीच इति सूत्रेण जकारस्य स्थाने चकारः आगच्छति अनन्तरं षट्छोटि इति सूत्रेण चकार तथैव तिष्ठति षकारस्य स्थाने चकारः आगच्छति विकल्पेन अतः तच् शिवः तथा तच्छिवः द्वे रूपे तत्र भवति
समीचीनं भगिनि हा नाम तत्र
हा इत्यादिकं करणीयं
अन्तिमं
फलम् अतः अद्यापि जयः उक्तः परन्तु व्यवहारे श्वः प्राक् चरः इति सामान्यम्
नाम अस्य सूत्रस्य उपयोगः कुत्र भवति साधारणतया चर्त्वसन्धि कृत्वा
केवलं
चर्त्वसन्धि कृत्वा एव एतस्य तत्र एतस्य उपयोगः भवति प्रयोगः भवति
केवलं शकारः आगच्छति तत्र एव अस्ति खलु
न परन्तु व्यवहारे शः प्राक् इति सामान्यं हा क्षम्यतां क्षम्यताम् आमामां श प्राक् चर् इति एव सामान्यं सत्यं सत्यं हा 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 समीचीनं भगिनि अस्तु अग्रे अपि तत्र अग्रे अपि दत्तमस्ति चत्वं
छत्वम् इति वाच्यम् इति वार्तिकेन इदं
कार्यं
पितु अमीपरेपि तत् अधिकश्लोकेन अत्र अपि तकारस्य स्थाने चकारः चर्त्वकारणेन तथा षट्छोटिसूत्रेण शकारस्य स्थाने चकारः आगच्छति अतः तच्छ्लोकेन इति अत्रापि द्वे रूपे सन्ति खलु भवतः
प्रायशः
श्लोकेन तथा शकारः तथैव तिष्ठति खलु
तत् श्लोकेन अथवा तत् श्लोकेन इति वा हा भवेत् भवेत् भगिनि तत्र अत्र करपत्रे न दत्तम् अन्य कोऽपि जानाति वा तत्र तत्र विकल्पः अस्ति वा अत्रापि इति
अस्ति इति मन्ये महोदय तदेव
अस्तु
अस्तु किं तत्र ते एव रूपे भवेत् अन्त्यवर्णः तकारः परं शकारः एव अस्ति द्वयोः कृते तदेव निमित्तानि समानानि अतः भवेत्
अस्तु अस्तु तर्हि तत्र केवलं तत्र क्षेत्रं बृहत् कृतं नाम अटि परे इति स्थाने अमि अपि भवितुम् अर्हति इति किन्तु यद् अटि परे भवति तथैव अमि परे अपि भवति इति चिन्तनं खलु
चत्वम् अमि इति इत्युक्ते चत्वं योगः अमि योगः इति न महोदय
इति वाच्यं
इत्युक्ते अमि इत्युक्ते प्रत्यय अमि प्रत्यहारे
सत्यं भगिनि तर्हि अम् इति प्रत्याहारे तत्र के के वर्णाः सन्ति
ऐ ऊरु ए ओ ऐ औ हय वर ल न मङ्गण न
पञ्चमवर्ण वर्गीयव्यञ्जन वर्गीयव्यञ्जने पञ्चमवर्ण अपि अस्ति
अपि हय वर ल अपि अस्ति
ल अपि अस्ति
लकारः अस्ति अत्र श अनन्तरं श परं लकारः अस्ति खलु
लकारः अपि च पञ्चमवर्ण
हा सत्यं महोदय तत्र उदाहरणे लकारः अस्ति पूर्वे उदाहरणे शिवः इति अस्ति तर्हि तत्र शकारस्य अनन्तरं स्वरः आसीत् इदानीं शकारस्य अनन्तरं लकारः अस्ति
लकारस्य स्थाने अम् लकार अम् प्रत्याहारे अस्ति अतः तत् स्थाने चकारः आदेशः भवति
वा तत् स्थाने इति न भगिनि तदा ये शकारस्य स्थाने तत्र चकारः आदेशः भवति इति लकारस्य स्थाने न लकारः अग्रे भवेत् नाम अम् इति अस्ति खलु सप्तमी खलु अटि यत् यतः पूर्वम् अटि इति अस्ति नाम अग्रे अट् वर्णः अस्ति चेत् एतद् भवितुम् अर्हति किन्तु इदानीं तत्र किम् उक्तम् अम् परे अस्ति चेत् अपि एतत् कार्यं भवति
लकार अस्ति चेत् अमि कार्यं करोति लकार अमि प्रत्याहारे अस्ति अतः चकारः
एतदेव एतदेव कार्यं तत्रापि भवति
अमीपरे
अमीपरे पूर्वम् अटिपरे इति उक्तं किन्तु अमीपरे इति भार्तिकेन उक्तं तत्रापि भवति इति तर्हि क्षेत्रस्य क्षेत्रं किञ्चित् बृहत् अभवत् कुत्र एतत् सूत्रं कार्यं करोति केवलम् अटिपरे इति आसीत् पूर्वम् इदानीम् अमीपरे अमि इति किञ्चित् बृहत् कृतम् अस्तु इदानीं तर्हि उदाहरणानि पश्यामः तर्हि तत्र नरेश महोदय अग्रे तत्र इदानीं तत्र पुस्तके एव
अस्तु छत्वसन्धि अत्र प्रथमा तु वयं पठितवन्तः यच् योगाशोकम्
किन्तु इदानीं जानीमः ओकारस्य प्रभावः अस्ति खलु महत्त्वमस्ति
महत्त्वमस्ति यच् योगशोकं य योगचकार योगशकार योग ओकं य योगचकार शकारस्य स्थाने छकार आगच्छति विकल्पेन अतः भवति यच्छोकम् अथवा यच्छोकम् 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 अग्रे मधुलिट् मधुलिट् योगश्येते मधुलि योग टकार योग शकार योग एते मधुलि योग टकार अत्र शकार से स्थाने छकार आगच्छति विकल्पेन अथवा शकार स्थियते अतः मधुल मधुलिट् छेते मधुलिट् शेते द्वे
समीचीनं
महोदय
अस्तु अग्रे धन्यवादः
महोदय तत्र भ्रमरः वा
मधुलिट्
मधुलिख् मधुलिख् इति कृते मधुलिट् मधुलिख् इति आं महोदय भ्रमरः
भ्रमरः मधु तत्र लीट् इत्युक्ते कः अर्थः तत्र मधुं
टकारस्य स्थाने टकारः भवति लिख् इत्युक्ते लिक् इति भवति महोदय आं या लिक् लिट् भवति या मधुलिट्
किन्तु अर्थः अर्थः कः नाम
अर्थः आङ्ग्लभाषायां लिक् लिक् इति भवति
लिख् लिख् इति लिट्
अतः तत्र महोदय लेह्यम् इति अस्ति खलु
मधुलिख् या द वन्
आम्रलेह्यं तत्सर्वं
आमां लेह्यं अस्तु 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 तत्र
यत् यत् लिख्यते इति प्रायशः
यद् यः लिखति
समीचीनं हा तर्हि मधुलिट् इति तत्र भ्रमरः अस्तु उत्तमम् अस्तु धन्यवादः निवेदित भगिनी हा मधुलिट् इति तस्य अर्थः कः इति ज्ञातवान् समीचीनं इदानीम् अग्रे तत्र उषा दिवते भगिनि
वाक् योगः शरः वा योगः ककारयोगः शकारयोगः अरः अनन्तरं वा योगः ककारयोगः चकारयोगः अथवा शकारयोगः अरः वाक् शरः एकं रूपम् अनन्तरं वाक्षरः अत्र शकारस्य स्थाने चकारादेशः भवति चकारयोगः अकारः तत्र अकारः अट् प्रत्याहारे अस्ति अतः चश्चोटि इति सूत्रेण चकारस्य स्थाने चकारादेशः चकारादेशः भवति अतः वाक्षरः एकं रूपम् अन्यत् रूपं वाक्षरः इति एकं रूपं भवति
समीचीनं भगिनि अस्तु अग्रे तत्र शोभा भगिनी अग्रे पठति वा
आं महोदय एतेषु उदाहरणेषु पदान्ते स्थितेभ्यः वर्गीयप्रथमव्यञ्जनेभ्यः परतः चकारः अस्ति तत्र शकारस्य छकारो विकल्पेन सम्पन्नः शकारस्य छकारः सर्वेषु यरलवमनेषु च परेषु एव भवति अन्यथा नैव यथा वाक् शच्योतति श्च्योतति वाक् श्च्योतति तत्र शकारात् परं चकारः अस्ति चेत् तत्र न भवति यतोहि चकारः अम् प्रत्याहारे नास्ति अम् इति वदामः चेत् अट् प्रत्याहारः तत्र अन्तर्भूतः अस्ति एव अतः तत्र अम् पर्यन्तम् अम् प्रत्याहारस्थ अन्यतमः वर्णेषु अन्यतमः अस्ति चेत् अस्य सूत्रस्य कार्यं भवति इति उक्तम् अपि च तत्र झै किं तत्र षष्ठ्योटि पदान्तस्य झयः प्रथम पदान्तवर्णः झैवर्णः भवेत् तस्मात् परं शकारः भवेत् तस्मात् परम् अम् प्रत्याहारस्थवर्णः भवेत् तदा अस्य सूत्रस्य कार्यं भवति शकारस्य स्थाने छकार आदेशः भवति विकल्पेन अपि च अतः पदान्ते स्थितात् तद्वर्गीयप्रथमव्यञ्जना व्यञ्जनात् परस्य शकारस्य छकारो विकल्पेन आदेशो भवति किन्तु शकारो शकारात् परे स्वराः यरलवम न तत्र षष्टिविभक्तिः बहुवचने यरलवमनाश्च इत्युक्ते अं प्रत्याहारसवर्णाः भवेयुः अस्मिन् सन्धौ छकारः आदेशः सम्पन्नः अतः छत्वसन्धिः इति नाम छत्वसन्धिः इति नाम्ना
तत्र सूत्रसहितं विवरणम् अत्र उपयोगकरम् अस्ति खलु भगिनि नो चेत् तत्र अपि एतत् सर्वं न जानीमः तत्र अटिपरे इति
आम् आम् यथा तत्र वाक्योगः शरः तत्र ककारः जैवर्णः अस्ति तस्मात् परं शकारः अस्ति निमित्तं जैवर्णः निमित्तं शकारः निमित्तं तस्मात् परम् अकारः अस्ति अतः अट् अथवा अम् प्रत्याहारस्थवर्णः अस्ति अतः निमित्तानि पूरितानि तेन तदा चत्वं भवति विकल्पेन शकारस्य इति षष्ठोटि इत्यनेन कार्यं भवति
समीचीनम् अस्तु तर्हि इदानीं तत्र अग्रे नूतनसन्धिः झटिति मास्तु इति कृत्वा तत्र पुनः अभ्यासः अस्ति पश्यामः तर्हि तत्र उषास्वामिनाथन् भगिनी तत्र आरम्भं करोति वा अग्रे तत्र अभ्यासः
महोदय अस्तम्भे पूर्वपदानि सन्ति भस्तम्भे परपदानि सन्ति कस्तम्भे संयुक्तपदानि सन्ति यतोदाहरणम् उचितपदानि योजयत अस्तु प्रथमबिन्दु युद्धात् अपि च श्रेयः उदाहरणमस्ति युद्धात् अपि च श्रेयः पदयोजनानन्तरं युद्धात् श्रेयः अपि च युद्धात् श्रेयः इति दत्तं युद्धात् प्रथमं युद्धात् श्रेयः जलां जशोन्ते अनन्तरं युद्धाच्च श्रेयः स्तुत्वं स्तोः शुनाश्चुः अनन्तरं युद्धाच्च श्रेयः भवति श्रेयः इत्यस्य शकारस्य सकारः भवति युद्धाच्छ्रेयः विकल्पेन युद्धाच्च जष्ट्वं च्युत्वं श्रेयः च्युत्वम् एव तदेव अस्ति युद्धाच्च श्रेयः इति रूपं रूपद्वयं भवति युद्धाच्छ्रेयः अपि च युद्धाच्च श्रेयः अपि भवति
भगिनि तर्हि तत्र जष्ट्वं
जष्ट्वं युद्धात् युद्धात् इति युद्धाद् भवति अनन्तरं दट्स् जष्ट्वं जष्टस्य अनन्तरं च्युत्वं च्युत्वं स्तोः शुनाशुः यतोहि परः शकारः अस्ति इत्यनेन दकारस्य स्थाने चकार आदेशः देन् अनन्तरं करिच ओ करिच देन् करिच करिच देन् युद्धाच्च प्रथमं प्रथमं जष्ट्वम् अनन्तरं स्तोः शुनाचुः इत्यनेन युद्धाज्ज श्रेयः देन् करीच इत्यनेन युद्धाच्च श्रेयः देन् युद्धाच्च श्रेयः इत्यस्य कृते श्रेयः भवति बैषट्चोटि इत्यनेन अथवा विकल्पेन रूप युद्धाच्च श्रेयः एव भवति चत्वस्य कृते विकल्परूपम् अस्ति इत्यनेन युद्धाच्च श्रेयः एव भवति सम्यक् वा महोदय?
सम्यक् सम्यक् भगिनि. हा तत्र केवलं तत्र एतद् उदाहरणं दत्तवन्तः तत्र, किन्तु तत्र श्रेयः इति तत्र शकारस्य अनन्तरं रेपः अस्ति खलु, तर्हि
रेपः हयवरट् हयवरट् अट् अटि एव खलु महोदय, इत्यस्य कृते रकारः उल्लेखः भवति रेपः.
उत्तमं, मम मनसि तत्र अमि इति तस्य आवश्यकता अस्ति वा इति.
अत्र नास्ति, अत्र नास्ति,
अत्र नास्ति. समीचीनम्. अतः तत्र अट् इति एव, तेन एव पर्याप्तम्. समीचीनं भगिनि, अस्तु, धन्य. इदानीं तत्र
भगवद्गीता श्लोकमपि अस्ति,
पठतु भगिनि. तत् पठतु.
2.39 एता ते विहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु, बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि.
भगिनि 231 खलु,
231 ओ अस्तु, एता 239 ओके,
अस्तु
ओके. स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि, धर्म्याद्धियुद्धाच् ओ श्रेयोन्यत् क्षत्रियस्य न विद्यते ओ युद्धात् श्रेयः. ओके, स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि, धर्म्याद्धियुद्धात् श्रेयोन्यत् क्षत्रियस्य न विद्यते. ओके, अर्हसि अपि च विद्यते क्रियापदम्. स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि. ओके, स्वधर्मम् अपि च अवेक्ष्य अवेक्ष्य ओके न विकम्पितुम् अर्हसि, विकम्पितुम् अर्हसि. शुड् यु नीड् नाट् विकम्पितुं, यु डिड् यु डोण्ट् हाव् टु ट्रिम्बल्, नो यु डोण्ट् हाव् टु वेव् अर् स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि. And then dharmyad, dharmyad hi, dharmyad hi yuddhat shreyaha anyaha kshatriyasya na vidyate. Okay, this righteous war, that is for the kshatriya, nothing better than that. Okay, swadharma mapicha vekshya navikampitu marhasi dharma. उडुवैसे स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि, लेबन्तम् अवेक्ष्य न विकम्पितुम् अर्हसि. तद् दिस् युद्ध एव युवर् युवर् स्वधर्मं, सो यु डोण्ट् हेव् टु वे लैक् वेवर् दिस् बिकास्
सत्यं सत्यं नाम विकम्पितुम् इत्युक्ते मनसि विकम्प तत्र करोमि न वा इति तादृशं
न चिन्तनं
मास्तु,
मास्तु
दृढं भवतु, नाम दृढः भवतु तत्र स्वधर्मम् अपि, स्वधर्मम् इति तस्य चिन्तनं कृत्वा अवेक्ष्य नाम तस्य चिन्तनं कृत्वा
विकम्पनं मास्तु, धर्म्याद्धि युद्धात् श्रेयो श्रेयः.
तत्र धर्म्यात् युद्धात् इति तत्र विशेषं
आम् 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 धर्म्याद् युद्धात् युद्धात् क्षत्रियस्य न विद्यते, अन्यत् क्षत्रियस्य न
विद्यते, न विद्यते.
आम्
नाम धर्मात् युद्धात् अन्यत् हि अन्यत् श्रेयः क्षत्रियस्य न विद्यते. नाम
दिस् इस् लैक् अ कम्पेरिसन्.
श्रेयः श्रेयः इति तत्र तुलना अस्ति खलु,
श्रेयः आम् महोदय
अपेक्षया इति तादृशम् अस्ति किन्तु अत्र पञ्चमी
युद्धात् श्रेयात् धर्म्यात् युद्धात् श्रेयः
श्रेयः तर्हि तत्र पञ्चमी तस्मात् श्रेयः अन्यत् न विद्यते
नास्ति क्षत्रियस्य कृते
क्षत्रियस्य धर्मे धर्मकार्ये तर्हि युद्धात् श्रेयः
युद्धात् श्रेयः
इति भवति समीचीनं भगिनि धन्यवादः
धन्यवादः
अस्तु अग्रे तर्हि इदानीम् अग्रे तत्र निवेदिता भगिनी अग्रे करोति वा
आम् वाक् अधिकं शस्त्रम् अत्र जलां जशन्ति इति सूत्रेण ककारस्य स्थाने गकारः आगच्छति तृतीयवर्णं वाग् अधिकशस्त्रम् अनन्तरं खरीच इति सूत्रेण पुनः गकारस्य स्थाने ककारः आगच्छति वाक् अधिकं शस्त्रम् अनन्तरं षश्चोटिः सूत्रेण चकारस्य स्थाने चकारः आगच्छति विकल्पेन अतः वाक् शस्त्रं वा वाक् शस्त्रम् इति द्वे रूपे स्तः
भगिनि तत्र पुनः सोपानानि वदतु तत्र वाग् वाक् इति
जलां जशन्ति सूत्रेण ककारस्य स्थाने गकारः आगच्छति खलु
आगच्छति समीचीनं वाक्
अधिकशस्त्रम् अनन्तरं खरीच इति सूत्रेण गकारस्य स्थाने पुनः ककारः आगच्छति
न न न तत्र स्थित्वं करणीयं भगिनि तत्र यथा भवत्या पठितं झष्त्वं स्थुत्वं चर्त्वं तर्हि नाम तत्र चकारः आगच्छति अन्ते खलु नो चेत् तत्र गकारः एव तिष्ठति तत्र धकारस्य स्थाने झकारः गकारस्य स्थाने झकारः
चकारः आगच्छति
क्षम्यतां तत्र अत्र नास्ति खलु क्षम्यताम् क्षम्यतां भगिनि हा मम मनसि क्लेशः आसीत् अस्तु
तत्र सूत्रेण पुनः ककारः आगच्छति
निमिषः अस्तु तत्र जलां जशन्ति इत्यनेन वाक् इति तस्य वाग् इति
अनन्तरं खरीसूत्रेण पुनः ककारः आगच्छति वाक् अनन्तरं षष्ट्योटि इति सूत्रेण षकारस्य स्थाने विकल्पेन छकारः आगच्छति अतः
समीचीनं
शस्त्रं वा वाक् शस्त्रम्
इति भवति समीचीनं
विट्
तत्र समीचीनमेव अस्ति अस्तु
सम्यक् अस्ति खलु
समीचीनमस्ति भगिनि हा समीचीनमेव अस्ति अहं तत्र किञ्चित् दृष्ट्वा चिन्तनं कुर्वन् अस्मि तावदेव अस्तु समीचीनमस्ति हा अस्तु अग्रे तत्र नरेश् महोदय कुर्यात् भगिनि तत्र एकम् कुर्मः अस्तु अग्रे नरेश् महोदय अग्रे महोदय नरेश् महोदय
श्रूयते
इदानीं श्रूयते महोदय
अस्तु विट् योग शङ्करः
अत्र प्रथमा तु जस्त्व सन्धि आगच्छति विट् विड् भवति टकारस्य स्थाने डकार आगच्छति विड् योगशङ्करः अग्रे तदा चर्त्व सन्धि भवति डकारस्य स्थाने पुनः टकारः आगच्छति विट् योगशङ्करः अग्रे षष्ठोटी सूत्रेण विकल्पेन छकारः अथवा शकारः आगच्छति अतः विट् शङ्करः विट् शङ्करः भवति
इति अस्ति समीचीनं महोदय धन्यवादः अस्तु अग्रे शोभा भगिनी
आं महोदय व्यासप्रसादात् योगः तत्र व्यासप्रसादात् इति व्यासप्रसादात् श्रुतवान् व्यासप्रसादात् श्रुतवान् इति पदम् अथवा व्यासप्रसादात् श्रुतवान् इति तर्हि व्यासप्रसादात् योगः श्रुतवान् इति भवति व्यासप्रसादात् इति पदान्तवर्णः जयवर्णः तकारः प्रथमं तस्य जस्त्वं भवति जलां झषन्त इत्यनेन व्यासप्रसादाद् इति भवति तदनन्तरं जस्त्वं तदनन्तरं श्चुत्वं भवति तकारस्य श्चुत्वं भूत्वा व्यासप्रसादाच् तत्र स्तोश्चुनाश्चुः इत्यनेन यतोहि तत्र परवर्णः षकारः अस्ति श्चुना इत्यस्य कृते अतः चवर्गीय दकारसवर्णः च जकारः आगच्छति व्यासप्रसादाज् इति तदनन्तरं खरिचैतनेन चर्त्वं भवति खरि खर्वर्णः परमस्ति चेत् षकारः खर्वर्णः अतः जकारस्य चर्त्वम् इत्युक्ते तत्र वर्गीय तद्वर्गीय प्रथमवर्णः पुनः आदेशरूपेण भवति जकारस्य वर्गस्य प्रथमवर्णः चकारः व्यासप्रसादाच् इति भवति व्यासप्रसादाच् योगः किं तत्र श्रुतवान् इति इदानीं पदान्तात् जयवर्णः परवर्णः शकारः श्रु तत्र शकारात् परवर्णः रेफः अट् प्रत्याहारस्थवर्णः तर्हि तत्र निमित्तानि पूरितानि अतः तत्र षष्ठोटी इति सूत्रस्य प्रसक्तिः इदानीम् अस्ति अतः षकारस्य स्थाने छकारादेशः भवति अन्यतरस्यां विकल्पेन भवति इति कृत्वा वैकल्पिकरूपं व्यासप्रसादाच्छ्रुतवान् इति एकं रूपम् अन्यस्मिन् पक्षे न इष्टं चेत् तत्र यत् यथा अस्ति तथा एव व्यासप्रसादाच् योगः श्रुतवान् वर्णमेलनेन व्यासप्रसादाच् श्रुतवान् इति रूपं भवति
समीचीनं अग्रे श्लोकः अपि अस्ति
श्लोक तत्र अष्टौ अस्तु
प्रायशः अन्तिम
समयः अस्ति वा महोदय
अस्ति भगिनि अस्ति भगिनि तत्र पञ्चनिमेषानि यावत् सन्ति
25
प्रायश अन्तिम अन्तिमश्लोकेषु
अन्तिम एव अस्ति
नाम अन्तिमं नास्ति किन्तु तस्मात्
किञ्चित् प्राक्
पूर्वं तत्र श्लोकत्रयमस्ति तदनन्तरं
व्यासप्रसादात् श्रुतवानेतद् गुह्यमहं परं योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् अस्तु इदानीं तत्र
व्यास
सञ्जय वदति तत्र सञ्जय वदति धृतराष्ट्रं व्यासप्रसादात् इत्युक्ते यत् व्यासमहर्षिणा महर्षेः अनुग्रहेण प्राप्तं दिव्यदृष्टिः तेन एतत् सर्वं दृष्टं मया अतः व्यासप्रसादात् श्रुतवान् एतत् यतोहि तादृशं शक्तिं दत्तवान् सः श्रुतवान् एतद् गुह्यम् अहं परम् एतद् गुह्यम् इत्युक्ते गुह्य गूढ विषयः अथवा गूढ किं चर्चा यत् कृष्णार्जुनयोः मध्ये अभवत् गुह्यम् अहं परं परं गुह्यम् इत्युक्ते तस्मात् परं गुह्यतमं किमपि नास्ति एव अतः
योगं परं
योगं
परं
योगम् आम् महोदय तत्र इत्युक्ते इदं परं योगम् अहं व्यासप्रसादात् श्रुतवान् इति वदति सञ्जयः अनन्तरं योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयं तदपि स्वयं भगवता उक्तम् एतत् गुह्यतमं परमं परमगुह्यतमं योगं योगेश्वरात् इति तत्र पञ्चमी योगेश्वरः इत्युक्ते कृष्णः योगेश्वरात् कृष्णात् इति तत्र विशेषविशेषणभावः साक्षात् कथयतः कथयतः स्वयम् इत्युक्ते तत्र शत्रुप्रत्ययः कथयतः न तदेव खलु कथयतः स्वयम् इत्युक्ते स्वयं योगेश्वरात् कृष्णात् क्षम्यतां स्वयं साक्षात् कृष्णात् योगेश्वरात् कृष्णात् साक्षात् कथयतः योगम् अहं व्यासमहर्षेः अनुग्रहात् श्रुतवान् इति वदति
इति अस्ति सत्यं भगिनि हा तत्र प्रायः कथयतः इति तत्र कथयतः
कथयतः
योगेश्वरात् कृष्णात्
कृष्णात् कथयतः इति योगम् इति भवति
सत्यं तथा अस्ति साक्षात् स्वयमेव श्रुतवान् तस्मात् अहं साक्षात् श्रुतवान् स्वयम् अहमेव श्रुतवान् अपि सर्वं व्यासप्रसादात्
आम्
इति अस्ति समीचीनं भगिनि हा अस्तु अस्तु इदानीं तत्र तत्र अन्यानि उदाहरणानि अपि सन्ति अभ्यासे किन्तु तद् अग्रिमे वर्गे कुर्मः तर्हि तत्र अन्ते तत्र तत्र निवेदिता भगिनी तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरि ओम् धन्यवादः पुनर्मिलामः
धन्यवादः महोदय नमस्कारः
धन्यवादः महोदय नमस्कारः
धन्यवादः महोदय
धन्यवादः भगिनी धन्यवादः